ॐ श्री परमात्मने नमः। अथ द्वादशोऽध्यायः भक्तियोगः। अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान्। श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते, ध्यानात् कर्मफलत्यागः, त्यागाच्छान्तिरनन्तरम्। अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च, निर्ममो निरहङ्कारः, समदुःखसुखक्षमी, सन्तुष्टः सततं योगी, यतात्मा दृढनिश्चयः। मय्यर्पितमनो बुद्धिः, यो मद्भक्तः स मे प्रियः। यस्मान्नो द्विजते लोकः, लोकान्नो द्विजते च यः। हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः। अनपेक्षशुचिर्दक्षः, उदासीनो गतव्यथः। सर्वारम्भपरित्यागी, यो मद्भक्तः स मे प्रियः। यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति। शुभाशुभपरित्यागी, भक्तिमान्यः स मे प्रियः। समःशत्रौ च मित्रे च, तथा मानापमानयोः, शीतोष्णसुखदुःखेषु समःसङ्गविवर्जितः। तुल्यनिन्दास्तुतिर्मौनी, सन्तुष्टो येन केनचित्। अनिकेतस्थिरमतिः, भक्तिमान् मे प्रियो नरः। ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते, श्रद्दधानामत्परमाः, भक्तास्तेतीव मे प्रियाः। ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः।
हरिः ॐ। श्रीगुरुभ्यो नमः। हरिः ॐ। अथ गीता पञ्चामृतश्लोकाः। उद्धरेदात्मनात्मानम्, नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुः, आत्मैव रिपुरात्मनः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्वमदर्पणम् अनन्याश्चिन्तयन्तो माम् ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः।